एकादशोऽध्यायः ज्ञानाष्टकम् सर्वं च लौकिकम् प्रकृतेः विकारः चित्तवृत्तिरेव दुःखहेतुः सर्वाधिष्ठानभूते आत्मनि यः निष्ठः स एव परमोपशान्तिम् प्राप्नोतीति च उपदेशः अष्टावक्र उवाच भावाभावविकारश्च स्वभावादिति निश्चयि निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयि अन्तर्गलित सर्वाशः शान्तः क्वापि न सज्जते आपदः सम्पदः काले दैवादेवेति निश्चयि तृप्तस्वस्थेन्द्रियो नित्यम् न वाञ्छति न शोचति सुखदुःखे जन्ममृत्यु दैवादेवेति निश्चयि साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते चिन्तया जायते दुःखम् नान्यथे हेति निश्चयि तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः नाहम् देहो न मे देहः बोधोऽहमिति निश्चयि कैवल्यमिव सम्प्राप्तो न स्मरत्यकृतम् कृतम् आब्रह्मस्तम्भपर्यन्तम् अहमेवेति निश्चयि निर्विकल्पः शुच्शान्तः प्राप्ताप्राप्तविनिर्वृतः नानाश्चर्यमिदम् विश्वम् न किञ्चिदिति निश्चयि निर्वासनस्फूर्तिमात्रो न किञ्चिदिव शाम्यति ॐ